एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्री केपी शर्मा ओली नेपालः ज्ञानस्य दर्शनस्य योगस्य अनुसन्धानस्य च उद्गमस्थले अस्ति त्यतः विश्वविद्यालयात् दीक्षितैः छात्रैः कर्तव्यनिष्ठतया देशस्य कृते कार्यं कर्तव्यम् इत्यत्र बलं ददाति। ह्यः पोखरा विश्वविद्यालयस्य विंशम् दीक्षान्त समारोहं सम्बोधयन् प्रधानमन्त्री विश्वविद्यालयस्य कुलपतिश्च ओली आत्मविश्वासेन सह कर्तव्यनिष्ठतया समाजाय समुचितेषु कार्येषु आत्मना प्राप्तस्य ज्ञानस्य उपयोगं विधातुम् अनुरुणत। तदवसरे प्रधानमन्त्री ओली कस्यापि देशस्य सार्वभौम सत्ता महती लघ्वी वा न भवति इति चर्चयन् सदैव नेपालं नेपालिनश्च केन्द्रे संस्थाप्य कार्यं विधातुं बलं ददत् च विश्वविद्यालयस्य रूपान्तरणकारिणे विकासाय सर्वकारः प्रतिबद्धोऽस्ति इति अगदत्। समारोहे पोखरा विश्वविद्यालयस्य विभिन्नानां संकायानां स्तराणां च संहत्य 7,800 छात्राः दीक्षिताः वर्तन्ते। दीक्षान्त समारोहे छात्रेभ्य दीक्षा प्रदानेन सहैव कुलपतिना सर्वोत्कृष्टेभ्य छात्रेभ्य पदकानि पुरस्काराश्च प्रदत्ताः आसन्। सर्वकारेण समान प्रकृतिकः भिन्नः भिन्नः संरचनाः एकीकर्तुं निरसयितुं हस्तान्तरयितुं च सम्बद्धेन अध्ययन प्रतिवेदनेन संस्तुतानां परामर्शानां क्रियान्वयनाय परामर्श क्रियान्वयनोच्चस्तरीयं कार्यदलं संघटयितुं निर्णीतमस्ति। मन्त्रिपरिषदः निर्णयान् सार्वजनिकर्तुं ह्यः संचार सूचना प्रविधि मन्त्रालये समायोजिते पत्रकार सम्मेलने संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ 75th 2000 विक्रमवर्षीयं सार्वजनिक सुधार आयोगः एतद् विक्रमवर्षीयं उच्चस्तरीयार्थिक सुधार परामर्श आयोगः समान प्रकृतिकः भिन्ना भिन्नः संरचनाः एकीकर्तुं निरसयितुं हस्तान्तरयितुं च सम्बद्धेन एतद् विक्रमवर्षीयेन अध्ययन प्रतिवेदनेन संस्तुतानां परामर्शानां क्रियान्वयनाय परामर्श क्रियान्वयनोच्चस्तरीयं कार्यदलं च संघटितानि सन्तीति अज्ञापयत्। असैव फाल्गुन मासस्य षष्ठे दिवसे उपविष्टेन मन्त्रिपरिषदः उपवेशेन आगामिनः 2080th 2000 विक्रमवर्षस्य सार्वजनिकावकाश दिवसानां निर्धारणं नेपाल पेयजल संस्थानस्य महाप्रबन्धक पदे गोर्खा जनपदस्य अर्जुन बाबु ढकालस्य नियुक्तिश्च विहिते स्तः इति मन्त्री गुरूङ अज्ञापयत्। प्रतिनिधि सभायाः अन्तर्गतया पूर्वाधार विकास समित्या एतत् विक्रमवर्षीयस्य जलस्रोत विधेयकस्य सम्पूर्णेषु 55 प्रकरणेषु 54 प्रकरणानि पारिति कृतानि वर्तन्ते। समितेः ह्यस्तनोपवेशे विहितस्य विधेयकमाश्रित्य प्रकरणगत विमर्शनस्य पश्चात् समित्या जलस्रोतसः स्वामित्वस्य विकासस्य च अधिकारः आयोगस्य स्थापना कार्यकर्तव्याधिकाराश्चेति द्वादशानां परिच्छेदानां 54 प्रकरणानि सर्वसम्मत्या पारिति कृतानि वर्तन्ते। उपवेशेन 17 प्रकरणस्य प्रथम द्वितीयो प्रकरणे समितेः आगामिनि उपवेशे विस्तृत विमर्शनानन्तरं पारिति करिष्यते। उपवेशे सांसदः जलविद्युद् आयोजनानां निर्माणसमये मापदण्डः जलोत्पन्न प्रकोपाणां व्यवस्थापनं तटबन्धन निर्माणं सुरक्षा चेति विषयेषु विधेयकेन स्पष्टीकरणीयमिति बलं दत्तवन्तः। बालबालिकानाम् अर्बुदरोगस्य उपचारे प्रयुज्यमानम् औषधं स्वास्थ्य जनसंख्या मन्त्रालयाय प्रदत्तमस्ति। विश्व स्वास्थ्य संघटनस्य नेपालस्य प्रतिनिधिना डा राजेश सम्भाजी राव इत्यनेन युनिसेफ संस्थायाः नेपालस्य निमित्तेन प्रतिनिधिना बुधि सेटियावन इत्यनेन सह स्वास्थ्य जनसंख्या मन्त्रिणे प्रदीप पौडेलाय औषधमेतत् प्रदत्तम् वर्तते। प्राप्तम् औषधं भक्तपुरार्बुद चिकित्सालये कान्ति बाल चिकित्सालये पाटन स्वास्थ्य विज्ञान प्रतिष्ठाने भरतपुरार्बुद चिकित्सालये च बालानाम् अर्बुदस्य उपचारे प्रयोक्ष्यते। औषध हस्तान्तरण कार्यक्रमं सम्बोधयन् स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः अर्बुद रोगस्य नियन्त्रणाय राष्ट्रियार्बुद रोग रणनीतेः अवलम्बनं विधाय उपचारेण सहैव निरोधात्मक विधेः प्रवर्धनस्य कार्यं विधीयमानमस्ति इति अभाषत। एतद् विक्रमवर्षीयस्य आपत्कालिक चिकित्सकीय समूह परिचालन कार्यविधेः पूर्व कार्योपवेशः सम्पन्नोऽस्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य प्रवक्तुः स्वास्थ्यापत्कालिक विपद व्यवस्थापन कार्य संचालन केन्द्रस्य प्रमुखस्य च डॉ प्रकाश बुढाथुकी इत्यस्य अध्यक्षतायां पूर्व कार्योपवेशः सम्पन्नोऽस्ति इति केन्द्रेण ज्ञापितमस्ति। राष्ट्रियान्तर्राष्ट्रिय स्तरे स्वास्थ्यापत्कालिक पूर्व कार्येषु प्रतिकारे च विहितानां कार्याणां समीक्षां विधाय नेपालस्य कृते क्रियान्वयनाय योग्यानि परामर्शनानि प्रस्तोतुं समितेः उपवेशः उपविष्टोऽस्ति इति केन्द्रेण ज्ञापितं वर्तते। गृहमन्त्री रमेश लेखकः गदति देशे व्यावसायिकं वातावरणं निर्मातुं सुशासनं संस्थापयितुं सेवाप्रवाहं व्यवस्थितं विधातुं नीतिगतं विधिगतं च संशयम् अपाकर्तुं सर्वकारेण अध्यादेशः आनीतः सन्ति। यः भक्तपुरस्य बोडेस्थाने नेपाल वित्तीय संस्था कर्मचारी संघस्य अष्टम राष्ट्रिय परिषदः उद्घाटन कार्यक्रमे गृहमन्त्री लेखकः देशस्य आवश्यकतायाः आधारेण एव अध्यादेशाः आनीताः सन्तीत्यतः सदनादेव पारिति करिष्यन्ते इति विश्वासं व्यक्तवान्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरुङ निगदति समावेश्यायोगस्य कार्यक्षेत्रं व्यवस्थितं विधातुं विधेः संशोधनम् आवश्यकं भवति। एतद् विक्रमवर्षीयम् आयोगदिवसम् उपलक्ष्य राष्ट्रिय समावेश्यायोगेन ललितपुरे ह्य आयोजिते कार्यक्रमे मन्त्री गुरुङ समावेश्यायोगः सांविधानिक व्यवस्थायाः अनुसारेण स्थापितः सन्नपि कार्यक्षेत्रं स्पष्टं नास्तीत्यतः अस्य व्यवस्थापनं विधेयम् इत्यत्र बलं प्रादात्। आयोगस्य कार्यवाहक अध्यक्षः विष्णुमाया ओझा आयोगेन सम्पादितानां कार्याणां विषये ज्ञापितवती। ताप्लेजुङ्ग जनपदस्य पाथिभरा क्षेत्रे केवल कारयानस्य विषयमादाय आन्दोलनकारिणां प्रहरिणांश मध्ये ह्य सम्भूते संघर्षे द्वादश जनाः आहताः वर्तन्ते। ताप्लेजुङ्ग जनपदस्य जनपदाधिकारिणः नेत्रप्रसाद शर्मणः अनुसारेण संघर्षे नेपाल प्रहरिणः सशस्त्र प्रहरिणश्च समग्रतः एकादश जनाः प्रदर्शनकारिषु एकश्च जनः आहताः वर्तन्ते। स्थितिं नियन्त्रयितुं सुरक्षाकर्मिभिः सप्तचक्रः अष्टधुमः प्रेरिताः सन्तीति प्रमुख जनपदाधिकारी शर्मा असूचयत्। म्याग्दी जनपदस्य बेनी नगरपालिकया वर्तमानार्थिकवर्षे गौरवयुतायाः द्वादश आयोजनाः क्रियान्विताः सन्ति। मार्गस्य पर्यटनस्य कृषेः शैक्षिक संस्थायाश्च पूर्वाधार निर्माण सम्बद्धेष् आयोजनास् द्वय सम्पन्ने स्तः चतस्र निर्माणाधीनावस्थायां वर्तन्ते तिस्र प्रक्रियायां च वर्तन्ते इति नगरपालिकया ज्ञापितमस्ति। बीरगंज सीमा प्रवेश बिन्दुतः एतद् विक्रम वर्षस्य श्रावण मासात् माघ मासान्तं यावत् सप्तानां मासानाम् अवधौ भारते अन्य तृतीय देशेषु च चत्वारिंशत अब्जानां चतुस्त्रिंशत कोटीनां चतुः पञ्चाशतो लक्षाणां च रूप्यकाणां नेपाल्युत्पादनानां निर्यातः सम्भूतोऽस्ति। गतवर्षस्य तुलनायां चत्वारिंशदधिकशतप्रतिशतेन निर्याते वृद्धि सम्भूतमस्ति इति बीरगंज सीमा प्रवेश शुल्क कार्यालय प्रमुख प्रशासक दीपक लामिछाने ज्ञापयति। उद्योग वाणिज्यापूर्ति मन्त्री दामोदर भण्डारी निगदति सर्वकारेण आनीताः अध्यादेशाः सहमतौ पारिति करिष्यन्ते। धनगढ़ी नगरे ह्य आयोजिते पत्रकार सम्मेलने मन्त्री भण्डारी सर्वकारेण पश्चात्तन समये आनीताः अध्यादेशाः शीघ्रमेव संसदि प्रस्तोष्यन्ते इति असूचयत्।